एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रतिनिधि सभायाः गतदिवसीयेन द्वितीयोपवेशेन नेपाल सर्वकारस्य एमसीसी नामधेयस्य अमेरिका देशीय सहयोग निकायस्य च मध्ये सम्पन्ना अनुदान सहायता संविधा बहुमतेन पारितीकृता वर्तते। अर्थमन्त्रिणा जनार्दन शर्मणा द्वादश सूत्रीय व्याख्यात्मक घोषणया सहित प्रस्ताव पारितीकरणाय सभायां प्रस्तुत आसीत्। प्रस्तावोऽसौ ध्वनिमतेन पारितोऽभवत्। सभामुख अग्निप्रसाद सापकोटा व्याख्यात्मक घोषणा च सदनेन पारितीकृतेति अश्रावयत्। प्रमुख प्रतिपक्षिणा नेकपा एमाले दलेन स्वस्य याचनाः न सम्बोधिताः इत्युक्त्वा सततं विरोधः विहितः आसीत्। प्रतिनिधिसभायाः अपरोपवेशः परश्वः फाल्गुनस्य अष्टादशे दिवसे बुधवासरे दिवा एकवादने वस्ता। तत्पूर्वम् उपवेशे सांसदैः एतस्य प्रस्तावस्य पक्षे विपक्षे च धारणा व्यक्ता आसीत्। नेकपा एकीकृत समाजवादिनः सांसदः पूर्व प्रधानमन्त्री च झलनाथ खनालः एमसीसी संविधा सम्बद्धं सकल विवरणं सदने प्रस्तोतव्यमिति चर्चयन् संविधाम् इमाम् सांसदैः अदित्य एव विमर्शनं विधातव्यमिति अगदत्। पूर्व प्रधानमन्त्री सांसदश्च डाक्टर बाबुराम भट्टराई प्रतिपक्षिणा नेकपा एमाले दलेन सत्तायां सहभागिभिः गठबन्धनस्य दलैश्च मिलित्वा मतैक्येन एमसीसी संविधा पारिति कर्तव्येति धारणाम् उपस्थापयत्। नेकपा माओवादी केन्द्रस्य प्रमुख सचेतकः पदीयो देवगुरूङ एमसीसी संविधा आर्थिक परियोजनायां सत्यमेव अग्रे वर्धनीयेति तर्कयन् सत्तायाः गठबन्धनस्य दलानां मध्ये सम्पन्नायाः एमसीसी विषयिण्याः व्याख्यात्मक संविधायाः विषये उत्तरम् अभ्ययाचत। नेकपा एमाले दलस्य सांसदः भीमरावलः एमसीसी संविधा देशस्य हितविपरीतास्तीति भाषमाणः एतस्याः अस्वीकरणम् अभ्ययाचत। लोकतान्त्रिक समाजवादी दलस्य सांसदः महन्त ठाकुर अमेरिका देशेन चिराय विभिन्नेषु क्षेत्रेषु सहयोग विद्यमानस्थिति चर्चयन् स्वदलम् एमसीसी संविधान समर्थयतीति उक्तवान्। सांसदाः लीलादेवी भेटमणि चौधरी प्रेम सुवालः दुर्गा पौडेल राजेन्द्र लिङ्गदेन च एमसीसी संविधा अस्वीकर्तव्येति धारणां व्यक्तवन्तः। सांसदः मिनेन्द्र रिजालः अगदत् नेपालेन चीन भारत अमेरिका सहितेभ्यः सर्वेभ्यो देशेभ्यो लाभः प्राप्तव्यः। सांसदः गगन थापा अकथयत् एमसीसी संविधा देशस्य हिताय अस्तीति हेतोः एतस्मिन् विषये सृष्टात् भ्रमात् मुक्तिः आवश्यकी वर्तते। उपवेशे प्रधानमन्त्रिणः शेरबहादेवविदस्य पक्षतो विधिन्याय संसदीय विषय मन्त्री दिलेन्द्र प्रसाद बडु मान्यायाधिवक्तुः गतार्थिक वर्षस्य वार्षिक प्रतिवेदनं प्रास्तौत। तत्पूर्वं प्रतिनिधिसभायाः उपवेशेन नेपाल सर्वकारस्य एमसीसी नाम्नः अमेरिका देशीय सहयोग निकायस्य च मध्ये सम्पन्ना अनुदान सहायता संविधा सामान्येन विमृश्यतामिति प्रस्तावः स्वीकृतः आसीत्। उपवेशे अर्थमन्त्रिणा जनार्दन शर्मणा प्रस्तुतः प्रस्तावः सभामुखेन निर्णयार्थं प्रस्तुते सति बहुमतेन स्वीकृतः आसीत्। उपवेशे एमसीसी संविधान आधृत्य विहिते सैद्धान्तिक विमर्शने सांसदैः उत्थापिताः विभिन्नाः प्रश्न जिज्ञासाः उत्तरयन् प्रधानमन्त्री शर्मा सर्वकारः देशस्य राष्ट्रिय स्वाधीनताम् अखण्डताम् च प्रति प्रतिबद्धोऽस्तीति ब्रुवन् कामपि अनुचित संविधान न विदधातीति समस्पष्टयत। तत्पूर्वं सत्तारूढ गठबन्धनस्य दलानां मध्ये एमसीसी संविधान गतदिने एव संसदा अनुमोदितुं सहमतिः धृता आसीत्। नेकपा माओवादी केन्द्रेण एमसीसी संविधान व्याख्यात्मक घोषणा सहितं संसद अनुमोदितुं निर्णीतमासीत्। प्रतिनिधिसभायाः उपवेशनात् पूर्वं दलाध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य खुमलटारवर्तिनी निवासे उपविष्टेन पूर्वस्थायी समितेः सदस्यानां विस्तारितोपवेशेन व्याख्यात्मक टिप्पणी सहितं एमसीसी संविधान अनुमोदितुं निर्णीतमिति अध्यक्षस्य प्रचण्डस्य स्वकीय सचिव रमेश मल्ल ज्ञापितवान्। एवमेव नेपाल कम्युनिष्ट पार्टी एकीकृत समाजवादीन उपविष्टेन उपवेशेन एमसीसी संविदा संविधानस्य विदेश परिदौ भवतीति व्याख्यात्मक प्रस्तावेन सह प्रतिनिधि सभायां प्रस्तुत्यै निर्णीतमासीत्। दलाध्यक्षस्य माधव कुमार नेपालस्य अध्यक्षतायाम् उपविष्टेन उपवेशेन अमेरिका देशस्य सैन्य रणनीतौ संविधेयं संलग्ना न भवति अपितु आर्थिक सहायताया रूपेण एव इमां संविधान स्वीकर्तुं निर्णीतमिति दलस्य उपमहासचिव प्रचार विभाग प्रमुखश्च जगन्नाथ खतिवडा अज्ञापयत्। सत्तारूढ़ दलैः एमसीसी संविदा भौतिक पूर्वाधाराणां विकासे केन्द्रितोस्तीति व्याख्यात्मक घोषणा विहिता वर्तते। एमसीसी संविदायाः सन्दर्भे दलैः नेपालः अमेरिका देशस्य सामरिक सैन्य सुरक्षा गठबन्धने बद्धो न भवतीति उद्घुष्टा वर्तते। सत्तारूढ़ दलैः द्वादश सूत्रेषु विवादित विषयाणां सम्बन्धे स्पष्टीकृत्य लेखा परीक्षणं महालेखा परीक्षकस्य कार्यालयेन विधीयते। आयोजनायाः प्राप्त बौद्धिक सम्पत्तिः नेपालस्य एव भवति। नेपालस्य संविधानात् उपरि कापि संविदा न भवति न विधीयते चेति उद्घुष्टं वर्तते। बालबाटार वर्तिने प्रधानमन्त्री निवासे ह्य सत्तारूढ दलैः विहिते विमर्शने एमसीसी संविदायाः विषये उत्थितानां प्रश्नानां उत्तराणि व्याख्यात्मक घोषणया सार्वजनिकृतानि सन्ति। पदं दुरुपयुज्य असीमित सम्पत्तिः अर्जितेति अभियोगे अधिकार दुरुपयोगानुसन्धानायोगेन पूर्वमन्त्रिणः रामकुमार श्रेष्ठस्य विरूद्धे ह्य विशेष न्यायालये न्यायिक प्रकरणं पञ्जीकारितं वर्तते। पूर्व सचिवश्च श्रेष्ठ 70-2000 वैक्रमाब्दे खिलराज रेग्मिणः नेतृत्वस्य निर्वाचन सर्वकारे मन्त्रिपदे आसीत्। आयोगेन पूर्वमन्त्रिणः श्रेष्ठस्य विरूद्धे कोटि चतुष्टयस्य 45,00,000 27,000 660-660 च रूप्यकाणां हानिवित्तम् अभियाच्य भ्रष्टाचरणस्य न्यायिक प्रकरणं पञ्जीकारितं वर्तते। पाशुपत क्षेत्रे स्व आयोक्ष्यमाणस्य महाशिवरात्रि पर्वणः सम्पूर्णानि पूर्वकार्याणि प्रपूरितानि सन्ति। पशुपति क्षेत्र विकास कोषेण ह्य पत्रकार सम्मेलनम् आयोज्य पर्वेदं व्यवस्थित रूपेण सम्पादयितुं सुरक्षा व्यवस्थायाः दर्शनस्य रात्रिकालिक व्यवस्थायाः भोजनावासयोः साधु सन्त जन सत्कारस्य धार्मिक कार्यक्रमस्य स्वच्छीकरणस्य उपानद व्यवस्थापनस्य स्वास्थ्य सेवायाः स्वयं सेवकानां परिचालनस्य च सम्पूर्णानि पूर्वकार्याणि प्रपूरितानि सन्तीति ज्ञापितं वर्तते। शिवरात्रि पर्वणः दिने महानगरीय यातायात व्यवस्थापन प्रहरी महाशाखया काष्ठमण्डपो उपत्यकावासिनो जनाः पशुपति क्षेत्रस्य यात्रायां वैकल्पिकं मार्गं प्रयुज्य यातायात साधनानि सञ्चालयितुम् अनुरुद्धाः सन्ति। राष्ट्रपतिना विद्यादेवी भण्डारिणा महाशिवरात्रि पर्वणि पशुपतिनाथस्य दर्शनाय प्राप्तेभ्य साधु सन्तेभ्य वितीर्यमाणानां सामग्रीणां संकल्प विहितोऽस्ति। शीतल निवास वर्तिनि राष्ट्रपति भवने ह्य पूर्वाह्नस्य 10 शुभ मुहूर्ते महाशिवरात्रि पर्वण अवसरे पशुपतिनाथस्य दर्शनाय प्राप्तेभ्य साधु सन्त जनेभ्य प्रस्थान दिवसे प्रदास्यमानानां सामग्रीणां राष्ट्रपतिना भण्डारिणा सविधि संकल्प विहित इति गुठी संस्थानस्य पशुपति गोस्वारा कार्यालयस्य प्रमुख सुशीला शर्मा घिमिरे अज्ञापयत। प्रतिवर्षं फाल्गुन कृष्ण एकादश्यां तिथौ एतासां सामग्रीणां संकल्पस्य परम्परा वर्तते। राष्ट्रपतिः विद्यादेवी भण्डारी कथयति विदेहे शासनाय सांविधानिक सर्वोच्चतायै न्यायपालिकायाः रक्षायै च विधि व्यवसायिनां भूमिका महत्वपूर्णा भवति इति समाचारः।